अथ ध्यानस्नानविधिः। श्री सनत्कुमार उवाच, त्रिविक्रमं तीर्थपादं नत्वा सर्वाघनाशनं ध्यानस्नानं प्रवक्ष्यामि सर्वसत्कर्मसिद्धये। खेस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिं हरिं स्मरेत्, अनन्तादित्यसङ्काशं वासुदेवं चतुर्भुजं शङ्खचक्रगदापद्मधारिणं वनमालिनं श्यामलं शान्तहृदयं दिव्यपीताम्बरावृतं दिव्यचन्दनलिप्ताङ्गं चारुहासं शुभेक्षणम् अनेकरत्नसञ्छन्नस्फुरन्मकरकुण्डलं नारदादिभिरासेव्यं भास्वद्विमलभूषणम् सकिङ्किणीकेयूरहारिणं मकुटोज्ज्वलं ध्वजवज्राङ्कुशलक्ष्मपादपाथोरुहद्वयं तत्पादनखजां गङ्गां निपतन्तीं स्वमूर्धनि चिन्तयेद्ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकां तनुं तया संक्षालयेत् सर्वमन्तर्देहगतं मलम्। तत्क्षणाद्विरजो मर्त्यो जायते स्फाटिकोपमः। इदं स्नानं परं मन्त्रात् सहस्राधिकमुच्यते इत्युक्तं मानसं स्नानमवगाहाच्छताधिकम्। इडा भागीरथी गङ्गा पिङ्गला यमुना स्मृता, तयोर्मध्ये गता नाडी सुषुम्नाख्या सरस्वती। ज्ञानह्रदे ध्यानजले रागद्वेषमलापहे यस्नाति मानसे तीर्थे स याति परमां गतिम्। नास्य संसर्गदोषोऽपि कदाचन भविष्यति। इदं ध्यानं परं मन्त्रात् सहस्रगुणमुत्तमम्। सार्धत्रिकोटितीर्थेषु स्नानात् कोटिगुणाधिकम्। यो नित्यमाचरेदेवं स वै नारायणस्मृतः। यः पठेत् प्रातरुत्थाय भक्तियुक्तेन चेतसा कालमृत्युमतिक्रम्य जीवत्येव न संशयः। अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोऽपि वा यस्मरेत् पुण्डरीकाक्षं तेन स्नातो भवाम्यहम्। इति वामनपुराणोक्तः ध्यानस्नानविधिः।